राम राम। श्री गंगा स्तोत्रम। देवी सुरेश्वरी भगवती गंगे त्रिभुवन तारिणी तरल तरंगे शंकर मौलि विहारिणि विमले मम मतिरास्ताम् तव पद कमले भागीरथी सुखदायिनी मातः तव जल महिमा निगमे ख्यातः नाहं जाने तव महिमानम् पाहि कृपामयि माम ज्ञानम् हरिपदपाद्यतरङ्गिणि गङ्गे हिमविधुमुक्ता धवलतरङ्गे दूरीकुरु मम दुष्कृतिभारम् कुरु कृपया भवसागरपारम् तव जलममलम् येन निपीतम् परमपदम् खलु तेन गृहीतम् मातर्गङ्गे त्वय्यो भक्तः किल तम् द्रष्टुम् नयमः शक्तः पतितो धारिणि जाह्नवि गङ्गे खण्डित गिरिवर मण्डित भङ्गे भीष्म जननि हे मुनिवर कन्ये पतित निवारिणि त्रिभुवन धन्ये कल्पलतामिव फलदाम् लोके प्रणमति यस्त्वाम् न पतति शोके पारावार विहारिणि गङ्गे विमुख युवति कृत तरलापाङ्गे तव चेन्मातः श्रोतस्नातः पुनरपि जठरे सोऽपि न जातः नरक निवारिणि जाह्नवि गङ्गे कलुष विनाशिनि महिमोतुङ्गे पुनरसदङ्गे पुण्यतरङ्गे जय जय जाह्नवि करुणापाङ्गे इन्द्र मुकुट मणिराजित चरणे सुखदे शुभदे भृत्य शरण्ये रोगं शोकं तापं पापं हर मे भगवति कुमति कलापं त्रिभुवन सारे वसुधाहारे त्वमसि गतेर्मम खलु संसारे अलकानन्दे परमानन्दे कुरु करुणामयि कातर वन्ध्ये तव तट निकटे यस्य निवासः खलु वैकुण्ठे तस्य निवासः वरमिह नीरे अमठो मीनः किं वा तीरे शरटः क्षीणः अथवा श्वपचो मलिनो दीनस्तव न हि दूरे नृपतिकुलीनः भो भुवनेश्वरि पुण्ये धन्ये देवी द्रवमयि मुनिवर कन्ये गङ्गास्तव मे मम मलम् नित्यम् पठति नरो यः स जयति सत्यम् येषाम् हृदये गङ्गा भक्तिः तेषाम् भवति सदा सुखमुक्तिः मधुराकान्त पज्झटिकाभिः परमानन्दकलितललिताभिः गङ्गास्तोत्रमिदम् भवसारम् वाञ्छितफलदम् विमलम् सारम् शङ्कर सेवक शङ्कर रचितम् पठति सुखीस्तव इति च समाप्तः शङ्कर सेवक शङ्कर रचितम् पठति सुखीस्तव इति च समाप्तः जय जय गङ्गे जय हर गङ्गे 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 राम राम।